अस्माकं न्याय अवलोकनवर्गे अधुना अभावस्य विषये चर्चा प्रचलन्ती अस्ति. अभावस्य विषये गतवर्गे वयं दृष्टवन्तः यद् अभावस्थले विरोधः भवति, परस्परविरोधिनौ भवतः, नाम घटाभावः अस्ति चेत् घटे घटाभावं प्रति विरोधः, घटाभावे घटं प्रति विरोधः, घटे विद्यमानविरोधस्य नाम प्रतियोगिता, अभावे विद्यमानस्य विरोधस्य नाम अनुयोगिता इति दृष्ट्वा तदनन्तरं सामान्याभाववर्णनं, विशेषाभाववर्णनं, विशेषविशेषाभाववर्णनं अभवत्. पुनः तत्र अवच्छेदकत्वम् इति दृष्टवन्तः. प्रतियोगिता कीदृशी इति ज्ञातुम् एकः अवच्छेदकः आवश्यकः आसीत्. तर्हि प्रतियोगिनी विद्यमानः धर्मः अवच्छेदकत्वेन कार्यं करोति इति वयं दृष्टवन्तः. नाम वृष्टिजले या प्रतियोगिता अस्ति, सा प्रतियोगिता वृष्टिजलत्वावच्छिन्ना प्रतियोगिता अस्ति. स्वातिनक्षत्रीयवृष्टिजले या प्रतियोगिता, सा स्वातिनक्षत्रीयवृष्टिजलत्वावच्छिन्ना प्रतियोगिता अस्ति इति दृष्टवन्तः. आहत्य अवच्छेदकधर्मः आसीत्, नाम धर्मस्य अवच्छेदकता अस्ति, प्रतियोगितायाः अवच्छेद्यता इति एकः विषयः स्पृष्टः गतवर्गे. अनन्तरम् अभावस्य चतुर्विधत्वम् इत्यस्मिन् प्रसङ्गे प्रागभावं, प्रध्वंसाभावम्, अत्यन्ताभावम् अधीतवन्तः. अधुना अन्योन्याभाववर्णनस्थले स्मः. तत्र अन्योन्याभावस्य अवगमनार्थं तादात्म्यसम्बन्धस्य अवगमनम् आवश्यकम् इति दृष्टम्. तादात्म्यसम्बन्धः इति कश्चन नूतनसम्बन्धः, सः न संयोगः, न वा समवायः, न वा स्वरूपसम्बन्धः. तादात्म्यसम्बन्धः इति तादृशसम्बन्धः येन प्रत्येकं पदार्थः स्वस्मिन् वर्तते, नाम घटः स्वस्मिन् तादात्म्येन वर्तते, पटः स्वस्मिन् तादात्म्येन वर्तते इति दृष्टवन्तः. अस्तु, इदानीं वयं नवपृष्ठसङ्ख्या 29 तत्र स्मः. इदम् अस्य कारणम् इति वक्तुं निकषाः इत्यस्मिन् भागे. अस्य भागस्य पठनेन तादात्म्यसम्बन्धः इतोपि स्पष्टः भवति इति अत्र आरभ्य. केनचित् आगतं वा नूतनतया?
भगिनी सरला अस्मि.
सरला भगिनी, अस्तु. अस्तु, इदम् अस्य कारणम् इति वक्तुं निकषाः इत्यस्मिन् भागे स्मः. तत्र उदाहरणं दीयते यत् कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारः. नाम अत्र उदाहरणत्वेन अत्र हस्तः अस्ति, हस्ते मालिन्यं वर्तते, मलनिवारणम् इति कार्यं, तत् कार्यं जायते जलसंयोगेन इति उक्तम्. तत्र जलसंयोगः यदा हस्ते भवति चेत् मलनिवारणम् इति कार्यं सञ्जायते. तर्हि अधुना रत्ना भगिनी किञ्चित् विवृणोतु अस्मिन् प्रसङ्गे कार्यं किं, कारणं किं, कार्याधिकरणं किम् इति.
अस्तु भगिनि, हस्तः कार्याधिकरणं, कार्यमस्ति मलनिवारणं, कारणमस्ति हस्तजलयोः संयोगः.
हा, हस्तजलसंयोगः इति कारणं भवति. कार्याधिकरणं किमुक्तं भवत्या?
हस्तः.
हस्तः इत्युक्ते इदानीं जलसंयोगम् अपरस्मिन् हस्ते कुर्मः चेत् कार्यं सिद्ध्यति वा?
न सिद्ध्यति. यत्र मलः अस्ति तत्र एव किं जलसंयोगः भवेत्.
तत्रैव जलसंयोगः भवेत्. तेन कः नियमः निष्कर्षः भवति निष्पन्न?
यत्र यत्र किं वदामः मलः अस्ति तत्र एव कार्यं भवेत्. इत्युक्ते यस्मिन् हस्ते इत्युक्ते कार्याधिकरणे कारणं भवेत्.
कार्याधिकरणे कार्यकारणे उभे भवेताम् इति कार्यमपि तत्र कार्याधिकरणे स्यात् कारणम् अपि कार्याधिकरणे स्यात् इति प्रथमः नियमः आगच्छति. अस्तु, इदानीं द्वितीयपरिच्छेदे उदाहरणं दीयते यत् घटनिर्माणस्थले कश्चन नागरिकः आगच्छति. अस्तु, घटनिर्माणप्रक्रियां ज्ञातुम् आगच्छति. तर्हि घटनिर्माणस्थलम् इति कार्याधिकरणं, तत्र नागरिकः अस्ति, तर्हि कार्याधिकरणे उभयोः उपस्थितिः अस्ति, तर्हि किं वदति तत्र? नागरिकः कारणमस्ति वा?
न, नागरिकः कारणं नास्ति, किन्तु सः अन्यथा सिद्धः भवति. इत्युक्ते सः अस्ति वा नास्ति वा तस्य किमपि परिणामं नास्ति घटनिर्माणं प्रति.
हा, नागरिकः भवेत् वा न वा इति मुख्यं नास्ति. घटनिर्माणं केवलं कार्याधिकरणे अस्ति नागरिकः इति कृत्वा कारणं न भवति नागरिकः, खलु?
सत्यं.
केवलं कार्याधिकरणे उपस्थितिः इति न अपेक्षितम्. अपि च नागरिकः तस्मात् स्थलात् निर्गच्छति चेदपि नागरिकः सर्वदा न भवति तत्र, खलु? निर्गच्छति चेदपि घटनिर्माणं भवति. तस्य आगमनात् पूर्वमपि घटनिर्माणम् आसीत्, तस्य गमनात् परमपि घटनिर्माणं भवति इति कृत्वा नागरिकः कारणं नास्ति. किन्तु दण्डचक्रादीनां विषये किं वक्तुं शक्नुमः भगिनि?
हा, दण्डचक्रादीनां विषये तेषाम् आवश्यकता अस्ति. इत्युक्ते दण्डचक्रादीनां विना घटनिर्माणं न भवति, अपि च तेषाम् उपस्थितिः कार्याधिकरणे इत्युक्ते घटनिर्माणस्थले घटनिर्माणात् पूर्वम् एव आवश्यकं. ते न सन्ति चेत् घटनिर्माणं न भवति.
हा, इति कृत्वा द्वितीयः नियमः सर्वदा भाव्यम् इति भवति, खलु? प्रथमः नियमः आसीत् कार्यं च कारणं कार्याधिकरणे भवितव्यं समानस्थले समानाधिकरण्यम् इति प्रथमनियमः. द्वितीयः सर्वदा कार्याधिकरणे कारणेन भाव्यम् इति. अधुना प्रश्नः उदेति यत् घटः यः निर्मितः भवति सः तु कार्याधिकरणे सर्वदा भवति, खलु?
सत्यं, निर्माणात् अनन्तरं सः भवति.
हा, तर्हि घटः सर्वदा भवति इति कृत्वा कारणं भवितुम् अर्हति वा?
स्वं प्रति न, न. किमर्थम् इत्युक्ते घटनिर्माणात् पूर्वम् एव भवेत्.
हा, यद्यपि घटः कार्याधिकरणे वर्तते तथापि
तस्य सः घटः घटाधिकरणे कार्यात् पूर्वम् इत्युक्ते घटोत्पत्तिपूर्वक्षणे तत्र भवितव्यम्.
हा, भवितव्यं घटेन, किन्तु घटः तथा न भवति.
सत्यम्.
हा, स्वोत्पत्ति उत्तरक्षणे एव घटः कार्याधिकरणे भवति, न तु तस्मात् पूर्वम् इति कार्यकारणभावविचारे त्रयः नियमाः सन्ति. सारांशत्वेन वदति वा भगिनि?
आं भगिनि, अत्र कारणं कार्यस्य प्रति कथं कारणं भवति इत्युक्ते कारणं कार्याधिकरणे भवेत्, अनन्तरं कार्याधिकरणे सर्वदा भवेत् कारणम्, अनन्तरं कार्याधिकरणे कार्य उत्पत्तेः इत्युक्ते उदाहरणं घट उत्पत्तेः पूर्वक्षणे भवेत्.
हा, अस्तु, तर्हि अन्तिम तत्र 30 पुटे ये तु घटकारणीभूताः तद् किञ्चित् पठतु एकवारम्.
हा, ये तु घटकारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते, सर्वदा वर्तन्ते, एवं घट उत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं, चक्रं घटकारणम् इति व्यवहारः, तथा च किञ्चन कश्चित् कस्यचित् कारणम् इति निर्धारयितुं इत्युक्ते कथं निर्धारं कुर्मः कारणं कत् किम् इत्युक्ते प्रथमबिन्दुः अस्ति तेन इत्युक्ते कारणेन कार्याधिकरणे स्थातव्यं तेन कार्याधिकरणे सर्वदा स्थातव्यं तेन पुनः इत्युक्ते कारणेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति भवति क्रमः विचारस्य.
समीचीनम् इति सारांशत्वेन
कः महोदय अत्र सर्वदा स्थातव्यं पूर्वक्षणे कार्य उत्पत्तेः पूर्वक्षणे स्थातव्यम् इत्योः मध्ये भेदः कः?
तत्र सूक्ष्मः सूक्ष्मः एव भेदः. इदानीं घटः इति कार्यं खलु. हा घटः इति स्वस्य उत्पत्तेः अनन्तरं स्वस्य जननात् अनन्तरं भवति खलु. तर्हि घटः अस्तु स्वस्य जननात् भवति इति कृत्वा सर्वदा अस्ति इति यद्यपि चिन्तयितुं शक्नुमः किन्तु कार्यस्य उत्पत्तेः पूर्वं नास्ति घटः. अतः घटः स्वं प्रति कारणं न भवितुम् अर्हति. परन्तु दण्डचक्रादयः तथा न सन्ति. किन्तु भवतः प्रश्नः समीचीनः. मम मनसि अपि सर्वदा सः प्रश्नः अस्ति सर्वदा. विद्याशङ्कर
महोदय, दण्डचक्रादयः कार्यादि घटोत्पत्ति स्थलात् बहिः नयामः चेदपि घटं तिष्ठति. सर्वदा स्थातव्यं दण्डाचक्रादयः कथं भवति? घटनिर्माणात् अनन्तरं दण्डः अन्यत् कुत्र कोऽपि स्वीकरोति?
न, मम चिन्तनमस्ति तत्र यदि घटनिर्माणं भवेत् दशघटनिर्माणं कुर्मः चेत् घटानां निर्माणं ते सर्वदा भवेत् अत्र अन्यत्र कुत्रापि.
दशघटानन्तरं तेषां
सर्वदा इत्युक्ते यत्र घटनिर्माणं भवति तत्र सर्वदा स्थातव्यं.
हा इति मम अवगमनमपि महोदय. यत्र कार्याधिकरणम् अस्तु, वस्तुतः कार्याधिकरणम् इत्युक्ते किम्? अत्र कपालः खलु. हा, ये तु कारणीभूतः दण्डचक्रादयः. ते घटाधिकरणे कपाले वर्तन्ते, सर्वदा वर्तन्ते, एवं घटोत्पत्ते पूर्वक्षणं वर्तन्ते. तर्हि कार्याधिकरणम् इति यद् मन्यामहे कपालः, तत्र एते भवन्ति वा इति प्रश्नः.
कपाले मृदु तत्र सदा सर्वदा भवति तत्र अधिकरणं, परन्तु घटः दण्डादि निमित्तकारणानि
दण्डचक्रादयः
भवितुम् अर्हन्ति.
हा, दण्डचक्रादयः निमित्तकारणानि घटोत्पत्तेः अनन्तरं प्रायः कपाले न भवन्ति इति भवतः प्रश्नः.
भगिनी, मम चिन्तनमस्ति तत्र इदानीं तत्र तयोः भेदः एवं भवितुम् अर्हति. इत्युक्ते ये पदार्थाः कार्याधिकरणे पूर्वक्षणे पूर्वकार्यस्य कार्योत्पत्तेः पूर्वं ते विद्यमानाः सन्ति, ते सर्वदा अपि भवितव्यम् इति अस्ति. इति इदानीं तत्र उदाहरणार्थं एकः नागरिकः आगच्छति, सः कार्योत्पत्तेः पूर्वं तत्र आगच्छति, परन्तु तेन गमनेन अपि कार्यं तत्र भवति, यतः सः सर्वदा तत्र न तिष्ठति. परन्तु यद्यपि प्रायः दण्डादिचक्रयः तत्र कार्योत्पत्तेः पूर्वं भवति, अनन्तरं वयं तत्र गण्डः इदानीम् आवश्यकं नास्ति इति ततः निष्कासयितुं न शक्नुमः, तर्हि तत् कारणं न भवति कार्यस्य इति प्रायः.
इत्युक्ते दण्डः कार्यं प्रति कारणं न भवति इति वा?
न, कार्योत्पत्तेः पूर्वमपि भवितव्यं, परन्तु मध्ये अनन्तरं तस्य कार्यस्य समापनन्तरं यदि प्रायः इदानीं घटः घटनिर्माणम् अभवत्, इदानीं दण्डः ततः इदानीम् आवश्यकं नास्ति इति तत्र कार्याधिकरणात् यदि वयं निष्कासयामः, तर्हि तत् कारणं न भवति. तथा तस्य लक्षणं तथा कारणम् इति वक्तुं तत्र लक्षणं सर्वदा तत्र कार्याधिकरणपूर्वक्षणे अपि स्थातव्यं, तत्र सम्पूर्णकार्य कार्योत्पत्तेः
कार्योत्पत्तिपर्यन्तं भवति चेत् भवेत् चेत् पर्याप्तम् इति.
इति भवितव्यं प्रायः ते तत्र इति तस्य लक्षणमस्ति. तेनैव कारणेन तत्र कारणम् इति वक्तुं शक्नुमः, यतः निकषः तथा अस्ति इति प्रायः.
अहमपि चिन्तयामि,
लघुभेदः अस्ति यतः नागरिकः अपि पूर्वक्षणे यदि वर्तते परन्तु मध्ये सः गच्छति चेत् तत्र सर्वदा न तिष्ठति, परन्तु तत्र पूर्वक्षणे आगत्य गतवान् तत्र पूर्व कार्योत्पत्तेः पूर्वम् आगतवान् इति कारणात् सः कारणं भवितुं नार्हति इति लघुभेदः.
भगिनी, अपि च कार्याधिकरणम् इत्युक्ते किम् इत्यपि चिन्तनीयं किल. यदा कार्यं भवति तदा एव कार्याधिकरणं भवति. कार्यात् बहुपूर्वम् अथवा कार्यात् अनन्तरम् अपि एतदेव कार्याधिकरणम् इति नास्ति किल. कार्यम् अभवत् अनन्तरं कार्याधिकरणम् इति किमपि कार्याधिकरणम् आसीत् किन्तु
इत्युक्ते दण्डचक्रादीनाम् अस्तित्वम् अस्ति लोके, परन्तु यावत्पर्यन्तं घटोत्पत्तिप्रक्रिया प्रचलति तावत्पर्यन्तम् इति सर्वदा इति मन्तव्यम् इति चिन्तयामि. वेङ्कटेशमहोदयस्यापि तथैव आशयः आसीत् इति चिन्तयामि.
यत्र यत्र घटनिर्माणं भविष्यति तत्र तत्र घटं घटादयः दण्डादयः भवेत्. घटनिर्माणपर्यन्तं
घटनिर्माणपर्यन्तं प्रायः सत्यं. तदनन्तरं घटं महोदय वदतु.
क्षम्यताम्, इत्युक्ते तत्र द्वितीयतृतीयनिकषौ तत्र सम्बन्धितनिकषौ स्तः, इत्युक्ते केवलं कार्योत्पत्तेः पूर्वक्षणे इति वदनेन इति नास्ति, तदपि सर्वदापि स्थातव्यं भवति इति मम अवगमनं. तत्र प्यारल इति कनेक्टेड् अस्ति,
किञ्चित् तत्र कनेक्षन् अस्ति एव, तदर्थमेव उदाहरणं दत्तवन्तः. घटः तु घटोत्पत्ति अनन्तरं घटः सर्वदा इति वक्तुं शक्नुमः. घटस्य जननं यदा जातं तदा कार्याधिकरणे अस्ति इत्युक्ते घटस्य दृष्ट्या सर्वदा इत्युक्ते तस्य जननात् परम् अस्ति इति, परन्तु तस्मात् पूर्वं नास्ति इति कृत्वा तृतीयः निकषः आगतः. घटः स्वस्य उत्पत्तेः पूर्वं नास्ति इति कृत्वा तर्हि घटः स्वस्य कारणं न भवितुमर्हति इति विचारः इति चिन्तयामि. अस्तु, केन केन आगतं तदभ्यन्तरे नूतनतया?
अनीता अस्मि, नमस्कारः भगिनि.
नीता भगिनि, अनन्तरं अनन्तकृष्णमहोदय, अनन्तरं
रवि अस्मि.
रवि महोदय, अस्तु महोदय. अस्तु, इदानीं निकषान् चर्चितवन्तः कार्यकारणभावस्थले. अधुना कपालः अपि घटस्य कारणम् इति वक्तुम् एते निकषाः पूरिताः भवन्ति वा इति द्रष्टव्यमस्ति इति अग्रे सरेम. सव्यसाचि महोदय, अग्रिमबिन्दुं पठति वा?
आमां भगिनि. तादात्म्यस्वीकारे कपालस्य घटकारणात्वसम्भवः. घटाधिकरणे कपाले कपालः स्वयं न प्रसिद्धौ संयोगादिभिः वर्तते. कुतः संयोगः भिन्नयोरेव द्रव्ययो भवति. समवाये अपि गुणिभावादिस्थले एव कल्पितः. प्रतियोगितादिरूपतापि कपालस्य नास्ति. तेन दशिकविशेषणता अपि न सम्बन्धः. किञ्च सम्बन्धिनोः भेदे सति एव संयोगसमवायादयः सम्भवन्तीति कथम् एकस्यैव कपालस्य अभिनस्य स्मस्विन् समवायादयः स्युः.
शीर्षकं परिशीलयतु पदविच्छेदं
तत्र. हा हा, यत् चित्रे अस्ति अथवा एकमेकं
शीर्षकं तत्र टैटल् अस्ति खलु तस्य.
अस्तु अस्तु अस्तु. हा तादात्म्य तादात्म्य अस्वीकारे तादात्म्यास्वीकारे कपालस्य घटकारणत्व घटकारणत्व असम्भवः तर्हि तादात्म्यः तादात्म्य अस्वीकारे इत्युक्ते तादात्म्यसम्बन्धः स्वीकारं न कुर्मः चेत् कपालस्य कपालस्य घट कारणत्वं कपालस्य एवं घटकारणत्वं तत्र असम्भवः तर्हि कपालः आवश्यकं घटोत्पत्ति इत्युक्ते तर्हि तादात्म्यसम्बन्धः स्वीकारं न कुर्मः चेत् घटकपालस्य कपालस्य घट कारणत्व घटे कारणत्वम् अस्ति कपालसम्बन्धः तत्र असम्भवः भवति तर्हि तादात्म्यसम्बन्धः अन्यसम्बन्धः आवश्यकः
आवश्यकः न स्वीकुर्मश्चेत् कपालः कथं वा कारणं भवति घटस्य इति निर्णेतुं न शक्नुमः इति अस्तु महोदय अत्र घटादिकरणम् इत्युक्ते किम्
घट अधिकरणे किम् अस्ति
प्रथमवाक्यं पठतु पुनः घटादिकरणे
घटादिकरणे कपाले कपालः स्वयं न प्रसिद्धौ संयोगादिभिः प्रसिद्धैः संयोगादिभिः वर्तते घटाधिकरणे कपाले कपालः घट अधिकरणे किम् अस्ति कपालः अस्ति कपालः कपाले स्वयं न प्रसिद्धैः संयोगादिभिः वर्तते कपालः कपाले केन सम्बन्धेन अस्ति इति प्रश्नः वा भगिनि अत्र
हा हा इति प्रश्नः इति प्रश्नः अस्ति तर्हि भवता यद् पठितं तद् चित्ररूपेण उपरितनभागे प्रदर्शितमस्ति चित्रं किञ्चित् परिशीलयति वा
आमां भगिनि घटः अस्ति घट अधिकरणे कपालः अस्ति घटकपालः तेन सम्बन्धः कः सम्बन्धः तत्र संयोगसम्बन्धः इति प्रदर्शितमस्ति
चिन्तयतु घटकपालयोः
समवायसम्बन्धः क्षमतां घटकपालयोः समवायसम्बन्धः अस्ति घटः एवं कपालः तत्र संयोगः
हा इदानीं घटः कपालः समवायः इति समीचीनम् इतः अग्रे सम्बन्धाः प्रदर्शिताः खलु तत्र कपालः स्वस्मिन् अनेन सम्बन्धेन वर्तते वा इति परिशीलयतु कपालः स्वस्मिन् संयोगेन वर्तते वा
संयोगेन तु न वर्तते किमर्थम् इत्युक्ते तत्र विभजनं करिष्यामः चेत् कपालः कपालः न भवति तर्हि संयोगेन न वर्तते
इत्युक्ते कपालः भिन्नद्रव्यं नास्ति तर्हि कपालः स्वस्मिन् संयोगेन वर्तुं तत्र भवितुं नार्हति
समीचीनम् अत्र लिखितम् अस्ति एतैः सम्बन्धैः कपालः स्वस्मिन् नास्ति इत्युक्ते संयोगेन कपालः कपाले नास्ति प्रथमम् अस्ति अनन्तरं द्वितीयमस्ति दैशिकविशेषणता दैशिकविशेषणता वयं पठितवन्तः अहं विस्मृतवान् तत्र
पूर्वस्मिन् पुटे एव अस्ति पश्यतु एकवारम् उपरितनभागे पूर्वस्मिन् पुटे एकं चित्रम् अस्ति दैशिकविशेषणता कुत्र अस्ति
आमामां दैशिकविशेषणता स्वरूपम् इत्युक्ते भूतलम् अस्ति तत्र घटत्व अभावः अस्ति भूतले एवं तत्र घटः अस्ति घटे प्रतियोगिता अस्ति घटत्वम् अस्ति तत्र अवच्छेदकदा अस्ति तत्र दैशिकविशेषणता इति वदामः तत्र दैशिकविशेषण इत्युक्ते कालिकविशेषणता इति अस्ति
दैशिकविशेषणता इति स्वरूपसम्बन्धस्य एकः प्रकारः तावदेव जानीमः एतावत् पर्यन्तं कालिकविशेषणता दैशिकविशेषणता इति प्रकारद्वयं स्वरूपसम्बन्धस्य तादृशमस्ति दैशिकविशेषणता किन्तु कपालः कपाले दैशिकविशेषणतया वर्तते वा
न वर्तते
यतोहि कपालः प्रतियोगिता नास्ति प्रतियोगिता वा अभावः अथवा अवच्छेदकः नास्ति कपालः तु द्रव्यम् अस्तु अग्रे
अग्रे अस्ति कालिकवक्ष कालिक वक्ष्यमाणः कालिकः इत्युक्ते कालसम्बन्धेन अस्ति वा इत्युक्ते समयानन्तरम् अद्य अथवा
हा वक्ष्यमाणः इत्युक्ते अग्रे उच्यते शानजन्त पदमस्ति भविष्यत्काले अग्रे उच्यते कालिकसम्बन्धः तर्हि कालिकसम्बन्धस्थले वयं ज्ञास्यामः यत् सर्वं काले महाकाले कालिकसम्बन्धेन वर्तते इति किन्तु अत्र विचारः कः कः कस्मिन् इति विचारः
कपालः कपाले केन सम्बन्धेन अस्ति इति कालिकसम्बन्धेन इति वक्तुं शक्नुमः वा इति प्रश्नः
हा न शक्नुमः इति एव खलु एतैः सम्बन्धैः कपालः स्वस्मिन् नास्ति इति अस्तु अग्रिमः अस्ति किम्
अग्रिमः अस्ति विषयता विषयता इति वक्ष्यमाणा विषयता प्रायशः वयं न पठितवन्तः अग्रे आगमिष्यति
अग्रे आगच्छति अग्रे आगच्छति तत्तु स्वाध्यायस्य विषयः आसीत् तर्हि हा विषयता ज्ञानम् अपि च तद्विषयता इति अस्ति खलु तर्हि हा विषयः ज्ञाने विषयतासम्बन्धेन वर्तते तादृशः कपालः नास्ति कपाले कपालः विषयतासम्बन्धेन अपि न भवितुम् अर्हति खलु इति कृत्वा किम् आवश्यकम् अत्र
अन्य किमपि सम्बन्धस्य आवश्यकम् अस्ति एवं तस्य नाम अत्र अस्ति तादात्म्यसम्बन्धः इत्युक्ते
इति नूतनः सम्बन्धः अस्ति अस्तु इदानीं सः सम्बन्धः कीदृशः इति पश्येम अग्रे विद्याशङ्करमहोदय पठति वा
महोदय प्रश्नः एक स्टुपिड् क्वश्चन् इट् मे बि घट उत्पत्तेः कपालः कारणम् इति किल
सत्यम्
अधिकरणः भूतलं वा
न कपालः कार्याधिकरणम् इति कपालः कार्याधिकरणम् इति कपालः अपि च कपालः स्वयं कारणमपि खलु तर्हि अस्माकं परिशीलनम् अत्र जायमानम् अस्ति यत् अस्तु कपालः स्वस्मिन् नाम कार्याधिकरणे सर्वदा भवति वा कार्योत्पत्तेः पूर्वं भवति वा इति त्रयः निकषाः आसन् खलु उपरितनभागे तस्य परिशीलनम् इद् अधुना कपालः कार्याधिकरणम् इति मत्वा कपालः स्वस्मिन् नाम कार्याधिकरणे केन सम्बन्धेन भवति इति परिशीलनं जायते तदा एव वक्तुं शक्नुमः अस्तु त्रयः निकषाः अपि पूरिताः कपालेन नाम कार्याधिकरणे भवति पूर्वक्षणं भवति इत्यादिकम् अस्तु अस्तु विद्याशङ्करमहोदय अग्रे
अतः कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः घटस्य कारणम् अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम् यदा पूर्वस्मिन् परिच्छेदे आसीत् कपालः कपाले केन सम्बन्धेन अस्ति इति प्रश्नः अस्ति तत्र अन्यसम्बन्धाः न भवितुम् अर्हन्ति ततः नूतनसम्बन्धः इति सिद्धं तादात्म्यम् इति सम्बन्धः प्रत्येकः विषयः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति अत्र कपालस्य कपालः स्वस्मिन् तादात्म्यसम्बन्धेन कपालः कपाले स्वस्मिन् अस्ति कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन स्वस्मिन् एव घटस्य उत्पादस्य घट उत्पादनस्य कारणं भवति यथा कपालः घटस्य समवायकारणं स्वस्मिन् तादात्म्येन स्थित्वा
हा इति अग्रे आगच्छति समवायिकारणम् असमवायिकारणं निमित्तकारणम् अग्रे पश्येम परन्तु अधुना कपालस्य कार्यादिकरणे उपस्थितिः केन सम्बन्धेन इति प्रश्ने कृते तादात्म्यसम्बन्धेन इति आगच्छति, यतोहि कार्यादिकरणमपि कपालः, कारणमपि कपालः, अतः कपालः कपाले तादात्म्येन इति स्वीकृतं स्यात्। अस्तु, अधुना तादात्म्यसम्बन्धः इति विषयः आगतः, यतोहि अस्य आधारेण अस्माकं मूलविषयः अस्ति अधुना अन्योन्याभावः, खलु? प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः दृष्टवन्तः। अन्योन्याभावस्य अवगमनसौकर्यार्थमेव तादात्म्यसम्बन्धः इति विषयः आगतः। अतः मूलविषयः कः इति अग्रिमपरिच्छेदे अस्ति। महोदय, पठति वा?
सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति, तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति, अयमेव च भेदः। प्रतियोगिनं विहाय सः सर्वत्र भवति, एवं पटः न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति, अयमेव च भेदः अन्योन्यभावः इति अभावविभागे चतुर्थः निर्दिष्टः। तत् लक्षणं च सङ्ग्रहपङ्क्तिव्याख्याने निरूपयिष्यते। सर्वे पदार्थाः स्वस्मिन् तादात्म्येन सम्बन्धेन तिष्ठन्ति, अनेन सम्बन्धेन घटः न अस्ति इति अभावः घटाभावः घटं विहाय जगति सर्वत्र अस्ति। घटाभावस्य प्रति घटः एव प्रतियोगी, तं प्रतियोगिनं विहाय घटाभावः सर्वत्र भवति। अतः पटः नास्ति एवं घटः पटः नास्ति इति भेदः, एवं वा न? पटाभावः पटः न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति। घटे पटः पटत्वं नास्ति, पटे घटत्वं नास्ति, स च भेदः अन्योन्य अभावः इति अन्यचतुर्थः निर्दिष्टः अभावः।
हा, समीचीनं। तर्हि बुद्धं स्यात् अयं भागः। प्रत्येकं पदार्थः स्वस्मिन् तादात्म्येन तिष्ठति, न अपरस्मिन् पदार्थे इति कृत्वा स्वं विहाय सर्वत्र जगति तस्य पदार्थस्य अन्योन्यभावः वर्तते एव, अतः घटपटौ उदाहरणत्वेन स्वीकृतौ इति अस्ति। अपि च अन्योन्यभावस्य पर्यायवाचि शब्दः कः महोदय? अयमेव च भेदः इति उक्तमस्ति खलु, समानार्थकशब्दः, पश्यति वा? तृतीयवाक्यं पठतु। तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र वर्तते।
आम्।
तदनन्तरम्
अयमेव च भेदः, कः भेदः?
अत्र भेदः इत्युक्ते भिन्नता इति नास्ति, भेदः इत्युक्ते अन्योन्याभावः इति वयं हा बहुत्र दृष्टवन्तः, भेदस्थले भेदस्थले इति खलु, पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इत्यादीनां विचार हा तत्रापि आगतमासीत्। भेदः इत्युक्ते अन्योन्याभावः इति न्यायशास्त्रे इति मनसि स्यात्। अन्योन्यभावस्य पर्यायवाची शब्दः अस्ति भेदः इति। अस्तु, हा समीचीनं। तर्हि अन्योन्यभावः एतादृशः यः तादात्म्यसम्बन्धेन कश्चन पदार्थः अपरत्र नास्ति इति, तादृश अभावः अस्ति अन्योन्याभावः। इदानीं शास्त्रीयरीत्या कथम् उच्यते अन्योन्यभावः, अन्योन्यभावस्य आकारः अथवा शब्दैः प्रतिपादनं कथं भवति इति अग्रे गत्वा पश्यामः। अग्रिमभागः अस्ति अधिकरणस्यापि भवति अनुयोगी इति संज्ञा इति भागः। तत्र एतावत्पर्यन्तम् अनुयोगी इत्युक्ते कः? बालसुब्रह्मण्यमहोदय वदति वा? हा, समीचीनम्। अनुयोगी इति अभावः खलु, एतावत्पर्यन्तं तथा एव दृष्टवन्तः, घटः अस्ति प्रतियोगी, घटाभावः अनुयोगी इति दृष्टवन्तः खलु। हा, एतावत्पर्यन्तं तथा आसीत्, परन्तु अत्र उच्यते यत् अधिकरणस्यापि अधिकरणस्यापि भवति अनुयोगी इति संज्ञा. इत्युक्ते अयम् अनुयोगी इति विरोधस्य अधिकरणमिति केवलं नास्ति, अथवा अनुयोगिता इति अभावनिष्ठविरोधरूपा नास्ति, परन्तु अधिकरणनिष्ठधर्मः अपि. नाम भूतले घटः अस्ति इति चेत् भूतलं किम् अस्ति तत्र बालसुब्रह्मण्यमहोदय? अधिकरणमस्ति. भूतले घटः अस्ति इति वदामि चेत् तत्र भूतलम् अधिकरणं, भूतलस्यापि अनुयोगी इति संज्ञा इति नूतनविषयः. इयं संज्ञा अभावसम्बद्धसंज्ञा नास्ति, अस्तु, अधिकरणसम्बद्धसंज्ञा अस्ति. किमर्थम् अस्य उल्लेखः क्रियते इति अग्रे गत्वा पश्येम. तर्हि एतां च इति पठतु.
एतां च अधिकरणता अधिकरणतारूपाम् अनियोगिताम् आदाय वेद अत्यन्त अभावयोः वैलक्षण्यं सम्प्रदाय इत्थं वर्णयन्ति. एतां च अधिकरणतारूपाम् अनियोगिताम् आदाय वेद अत्यन्त अभावयोः वैलक्षण्यं सम्प्रदाय इत्थं वर्णयन्ति.
तद्वा किं बुद्धं वा? भवानेव, हा, भवानेव उक्तवान् अधिकरणम् इत्युक्ते भूतलं, तस्य अनुयोगी इति संज्ञा. तर्हि अधिकरणे कः धर्मः अस्ति? अधिकरणता
अधिकरणता इति धर्मः.
हा, तर्हि
प्रश्नः कः महोदय?
हा, तर्हि तत्र अधिकरणतारूपाम् अनुयोगिताम् आदाय इत्युक्ते अधिकरणता अनुयोगिता समानौ खलु? यतोहि भूतलं, हा, भूतलम् इति अधिकरणमस्ति इति कृत्वा तस्मिन् अधिकरणता, भूतलम् अनुयोगी. अस्मिन् प्रसङ्गे भूतलं घटे भूतले घटः अस्ति इति चेत् भूतलम् अनुयोगी, तस्मिन् अनुयोगिता अपि अस्ति खलु? अतः अधिकरणतारूपाम् अनुयोगिताम् आदाय नाम स्वीकृत्य किं कुर्वन्ति अग्रे?
वेद अत्यन्त अभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयन्ति. किञ्चित् भेदः अस्ति.
हा, भेदः इत्युक्ते कः?
अन्योन्यसम्बन्धः,
अन्योन्याभावः,
अन्योन्याभावः.
समीचीनं. भेदः इति यत्र कुत्रापि आगच्छति तर्हि अन्योन्याभावः इति चिन्तयतु. भेदस् अन्योन्याभावस्य पर्यायवाची शब्दः तावदेव. तर्हि अधिकरणतारूपाम् अनुयोगितां स्वीकृत्य भेद अत्यन्ताभावयोः वैलक्षण्यं, वैलक्षण्यम् इत्युक्ते भिन्नता, भिन्नतां सम्प्रदाये वर्णयन्ति, शास्त्रीयरीत्या वर्णयन्ति. कथमिति अग्रिमपरिच्छेदः पठतु.
अत्यन्त अभावस्थले बोधनाय प्रतियोगी वाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य च सप्तमी भवति. सो बोधनार्थम् अत्यन्त अभावस्थले प्रतियोगिवाचकपदस्य प्रथमा विभक्त अस्ति, अनुयोगिवाचकपदस्य सप्तमीभक्तौ भवति.
अग्रिमवाक्यं पठति चेत् स्पष्टं भवति, पठतु.
यथा भूतले घटो नास्ति इति अत्यन्त अभावबोधकः प्रयोगः. तथा भूतले घटो नास्ति इति अत्यन्तभावबोधकः प्रयोगः. अत्र च घट अभावः भूतले अस्ति. अभावप्रतियोगिता घटे
इति सुलभमेव खलु? घटाभावस्य
अभावस्य प्रतियोगिता. तद् वाचकपद उत्तरं प्रथमा विभक्तिः भवति. पूर्वमेव उक्तः उत्तरं प्रथमविभक्तेः भवति
इत्युक्ते घटाभावः भूतले अस्ति इत्यस्मिन् वाक्ये घटाभावः प्रथमाविभक्त्याम् अस्तु अग्रे पठतु इदानीम्
अभाव अनुयोगी भूतलम् अभावस्य अनुयोगी भूतलम्
अनुयोगी इत्यस्य नूतननामकरणं किमस्ति अनुयोगी इत्युक्ते
अधिकरणमिति
हा अधिकरणं तर्हि घटाभावः भूतले अस्ति इत्यत्र अधिकरणं किम् हा भूतलं तर्हि अभाव अनुयोगी भूतलम् अवगच्छति वा इत्युक्ते अभावस्य अधिकरणं भूतलम् अग्रे
अतः तद्वाचकपदोत्तरं सप्तमी विभक्तिः भवति तद्वाचकपद उत्तरं सप्तमी विभक्तिः भवति
इति दृष्टवन्तः भूतलम् इति अनुयोगी अथवा अधिकरणम् अस्ति
चेत्
सप्तमी अस्ति
एवमेव वायौ रूपं नास्ति रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य सप्तमी विभक्तिः समर्थनीया एवमेव वायौ रूपं नास्ति रूपे विशेषः नास्ति इति वाक्येषु
रूपे विशेषः नास्ति इत्युक्ते रूपे विशेषाभावः इति फलितार्थः वायौ रूपं नास्ति इत्युक्ते वायौ रूपाभावः इति फलितार्थः
सत्यं सत्यं रूपे विशेषः नास्ति अभावः वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा
इति सत्यं खलु रूपाभावस्य प्रतियोगी कः
रूपाभावस्य प्रतियोगी
रूपं यतोहि रूपं निवारयति अभावं रूपं निवारयति यदि वायुरूपम् अभविष्यत् समवायेन अभविष्यत् किन्तु तथा नास्ति इति भिन्नविचारः रूपं निवारयति तादृश अभावम् इति कृत्वा रूपम् इति प्रतियोगी अपि च प्रतियोगिवाचकपदस्य का विभक्तिः न प्रतियोगिवाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य हा सप्तमी विभक्तिः इति अत्यन्ताभावस्थले अवगतं वा घटः भूतले नास्ति अथवा वायौ रूपं नास्ति इत्येतादृशप्रयोगाः अत्यन्ताभावस्य प्रयोगाः अत्र च प्रतियोगितावाचकपदस्य प्रथमा अनुयोगी नाम अधिकरणवाचकपदस्य सप्तमी इति अस्ति अधुना अन्योन्याभावस्थले व्याकरणदृष्ट्या परिशीलनं क्रियते चेत् कस्य का विभक्तिः इति अग्रिमबिन्दुः अस्ति पश्येम वेङ्कटेशमहोदय अग्रे पठति वा
वेदस्थले तु प्रतियोग्य अनुयोगिवाचकपदाभ्यां प्रथमा विभक्तिः भवति यथा घटः पटो न इति यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनुयोगी घटः प्रतियोगी इयमपि पटनिष्ठ अनियोगिता अधिकरणता एवम् इह विपरीतमपि सम्भवति पटभेदः घटनिष्ठ बोधयितुम् इष्टश्चेत् अपि इदं वाक्यं भवति तर्हि अनुयोगिता घटनिष्ठ अनुयोगिता प्रतियोगितयोः आश्रयभेदेऽपि विभक्तौ भेदः नैव भवति इति भेदस्थले विशेषः तर्हि पूर्वं तत्र वयं अत्यन्तभावस्थले तत्र बोधनाय प्रतियोगिवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य सप्तमी इति स्वीकृतवन्तः. तत्र कठे भूतले कठः नास्ति, भूतले पटः नास्ति इति सन्दर्भे. परन्तु भेदस्थले इत्युक्ते तत्र अयमेव भेदः इति पूर्वोक्तम् इत्युक्ते अत्यन्त अभावः एव भेदः. अतः अत्यन्त अभाव क्षम्यताम् अन्योन्य अभावः एव भेदः. अन्योन्य अभावस्थले तत्र प्रतियोगि अनियोगिवाचकपदाभ्यां द्वाभ्यामपि प्रथमाविभक्तिः भवति. यथा वाक्ये घटः पटः न इति इति वाक्ये सति तत्र तादृशवाक्ये यदा वयं वदामः तत्र घटः अपि पटः अपि तत्र इत्युक्ते घटभेदः पटे अस्ति. घटस्य अन्योन्य अभावः पटे नास्ति इति वक्तुम् इच्छते सति तत्र पटः अनियोगी घटः प्रतियोगी. परन्तु तत्र पठनिष्ठ अनियोगिता अधिकरणता एव इत्युक्ते तत्र इदानीं
स्थितिः का इत्युक्ते घटाभावः पटे अस्ति इति चिन्तयतु.
अनियोगी तत्र घटाभावः अनियोगी तत्र
महोदय घटाभावः अनुयोगी इति तु सत्यं, यतोहि अभावे अनुयोगिता अस्ति इति सत्यं. परन्तु अत्र नूतननामकरणं कृतं खलु, अधिकरणस्यापि अनुयोगी इति संज्ञा इति उक्त्वा घटाभावः पटे अस्ति इति वदामश्चेत् तत्र अधिकरणं
पटः तर्हि तत्र पठनिष्ठ अनियोगिता घटे अस्ति इति वा तत्र
पठनिष्ठ अधि हा तस्य अर्थः अयं यत् पठनिष्ठ अनुयोगिता या अस्ति सा अनुयोगिता पठनिष्ठ अधिकरणता एव. कस्य अधिकरणता? घटाभावस्य अधिकरणता. पूर्वम् अनुयोगिता इति अभावसम्बद्धशब्दः इति तु सत्यं, परन्तु अत्र नूतनसंज्ञा दत्ता. अधिकरणस्यापि अनुयोगिता इति संज्ञां कृत्वा घटाभावः पटे अस्ति इति कृत्वा अत्र अधिकरणं किम्? घटाभावस्य अधिकरणं पटः, पटस्यापि अनुयोगी इति संज्ञा अस्ति. अस्तु अस्तु, तर्हि प्रयोगः कथं भवति अन्योन्यभावस्थले? वाक्यैः वदामश्चेत्
न्यायशास्त्ररीत्या वा?
हा, न्यायशास्त्ररीत्या. भवान् तु उक्तवान् एव घटः पटो न इति व्यवहारः भवति खलु?
आमां, सत्यं. अत्र अहं चिन्तितवान् प्रायः निष्ठशब्दम् उपयुज्य वक्तव्यं वा इति. अस्तु,
न घटः पटो न इति भवति खलु तत्र?
सत्यं,
घटः पटो न इत्यस्मिन् वाक्ये अनुयोगी कः अस्ति? पटः एव खलु? हा, यतोहि पटे घटाभावः अस्ति इति तत्र इङ्गितम्, अतः पटः अनुयोगी. घटः घटः हा यथा सामान्यं प्रतियोगी. अस्तु, तर्हि घटः पटो न इत्यस्मिन् स्थले विभक्तयः काः काः सन्ति इति किञ्चित् परिशीलयतु तस्मिन् वाक्ये.
तर्हि तत्र द्वौ अपि तत्र प्रथमाविभक्तिशब्दाः एव.
सत्यम् इति एव प्रथमवाक्ये उक्तं खलु?
तत् सत्यं.
हा, प्रतियोगी अनुयोगी वाचकपदाभ्यां प्रथमाविभक्तिः
तर्हि यथा पूर्वं यद्यपि वयम् आश्रयं यत् यद् अधिकरणमस्ति तस्य सप्तमी विभक्ति अनन्तरं प्रतियोगिवाचकपदस्य प्रथमा विभक्ति प्रयुक्तम् अत्यन्त अभावस्थले, परन्तु अन्योन्यभावस्थले यथा भेदः घटः पटः न इति स्थले अनियोगि प्रतियोगितयोः आश्रयभेदे अपि प्रथमाविभक्ति शब्दः एव प्रयुक्तः इति विशेषः इति
समीचीनम् इत्येव अस्ति. अन्योन्यभावस्थले अयमेव महान् भेदः यत् अनुयोगी प्रतियोगी वाचकशब्दाभ्यां प्रथमाविभक्ति एव अस्तु इति भेदस्य वर्णनम् एवं कुर्वन्ति. इदानीं
प्रश्नः तत्र अत्यन्त अभावस्थले इति प्रयोगवाक्यं इति शुद्धं किम् अस्ति इति वाक्यद्वयं भवितुम् अर्हति खलु, घटः भूतले नास्ति अथवा घटाभावः भूतले अस्ति, द्वयोः वाक्ययोः इति प्रतियोगितापदस्य प्रथमा भवति अनियोगितापदस्य सप्तमी भवति, तर्हि द्वयोः अपि सत्यम् अथवा घटः भूतले नास्ति इति सत्यम् अथवा घटाभावः भूतले अस्ति इति अथवा समानमेव अर्थम्
अर्थः. हा वस्तुतः प्रश्नः समीचीनः महोदय, यतोहि अर्थः समानः एव किन्तु किञ्चन लघुभेदः अस्ति. घटाभावः भूतले अस्ति इति वदामश्चेत् तत्र सम्बन्धः कः? अभावः भूतले केन सम्बन्धेन भवति?
अभावः भूतले स्वरूपसम्बन्धेन भवति.
स्वरूपसम्बन्धेन भवति, तादृश अर्थः निहितः अस्ति घटाभावः भूतले अस्ति इत्यत्र. अधुना घटः भूतले नास्ति इत्यत्र चिन्तनीयं भवति यत् यदि घटः अभविष्यत् भूतले तर्हि केन सम्बन्धेन अभविष्यत्? घटः भूतले केन सम्बन्धेन भवति?
घटः भूतले स्वरूपसम्बन्धेन अपि भवति.
न न न घटाभावः
क्षम्यतां संयोग
प्रसिद्धः खलु संयोगसम्बन्धेन अस्ति. तर्हि कश्चन भेदः अस्ति, घटाभावः भूतले अस्ति इति वदनेन स्वरूपसम्बन्धः तत्र प्रदर्शितः भवति, परन्तु घटः भूतले नास्ति इत्यनेन विषयद्वयं तत्र स्पष्टं भवति. एकं तु घटः प्रतियोगी इति स्पष्टं भवति, अपरं तु घटभूतलयोः सम्बन्धः संयोगः यदि घटः अभविष्यत् इति स्पष्टः भवति. अस्तु तदा वदामः यत् यः अत्यन्ताभावः अस्ति सः अत्यन्ताभावः संयोगसम्बन्धावच्छिन्ना इति वदामः. क्षम्यतां, अत्यन्ताभावस्य प्रतियोगिता संयोगसम्बन्धावच्छिन्ना इति वदामः इति कश्चन भेदः अस्ति. अपि च भवतः प्रश्नः मूलप्रश्नः आसीत् कः प्रयोगः साधुः इति खलु? प्रतियोगीवाचकपदस्य प्रथमा इत्युक्ते प्रायः घटः भूतले नास्ति इति प्रयोगः एव साधुः. इत्युक्ते तत्र घटः इति प्रतियोगी, तस्मात् प्रथमा विभक्ति, भूतलपदात् सप्तमी विभक्ति इति.
इति मया लिखितमासीत् पूर्वे, तथापि रूपं वायोर्नास्ति इति पदमस्ति द्वितीय उदाहरणे तत्र. रूपमिति प्रतियोगी तत्र प्रथमाविभक्ति वायो इति सप्तमी वायो नास्ति नास्ति प्रयोगः इति अत्यन्ताभावस्थले.
अस्तु इदानीं भवान् एव वदतु, यदि रूपं वायौ अभविष्यत् तर्हि केन सम्बन्धेन अभविष्यत्?
रूपं वायो अभविष्यत् तर्हि संयोगसम्बन्धेन अभविष्यत्.
चिन्तयतु केन सम्बन्धेन, गुणः द्रव्ये केन सम्बन्धेन भवति?
आ, हा हा गुण समीचीनं समीचीनम् अत्र तु रूपमस्ति रूपमस्ति चेत् निश्चयेन समवायसम्बन्धेन
समवायेन परन्तु नास्ति रूपं नास्ति इति अत्यन्तभावः अतः रूपे प्रतियोगिता अपि अस्ति अपि च सा प्रतियोगिता समवायसम्बन्धावच्छिन्नप्रतियोगिता इति उच्यते यतोहि यदि रूपं वायौ अभविष्यत् तर्हि समवायेन अभविष्यत् परन्तु नास्ति इति वैचित्र्यम् अस्ति नास्ति अभावः इत्येषां कश्चन सूक्ष्मभेदः अस्ति अनयोः मध्ये
संयोगः किम् इति चिन्तनीयं भवति तत्र तेन अवच्छिन्ना भवति सम्बन्धः इत्युक्ते तत्र घटभूतले तत्र संयोगसम्बन्धः एवं रूपं वायुर्मध्ये समवायसम्बन्धः इति अस्ति विशेषः केन सम्बन्धेन अवच्छिन्ना भवति
हा 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 प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना भवति इति चिन्तनीयं भवति हा अस्तु उपरितन अस्मिन्नेव पुटे द्वितीयपरिच्छेदे पेज् 31 इत्यस्मिन् द्वितीयपरिच्छेदे उक्तमस्ति सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् अस्ति नाम तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति अस्तु तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र तादृशी एव स्थितिः अत्र रूपं वायौ नास्ति केन सम्बन्धेन समवायसम्बन्धेन हा घटः पटः पटो न केन सम्बन्धेन
न तत्र तु अभावः घटः पटः न इत्युक्ते तत्र तु तादात्म्यं भवति खलु
हा 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 समीचीनं तादात्म्यसम्बन्धः अतः तादात्म्यसम्बन्धः प्रतियोगितायाः अवच्छेदकः भवति इति वार्ता नाम एतावत्पर्यन्तं यदा यत्र वृष्टिजलम् इत्यादिकम् आसीत् तत्र वयं दृष्टवन्तः पुनस्मरणार्थं पेज् 24-25 पश्यन्तु 25 वृष्टिजलत्वावच्छिन्नप्रतियोगिता अथवा जलत्वावच्छिन्नप्रतियोगिता इति आसीत् खलु अधुना सम्बन्धस्य अवच्छेदकत्वं पश्यामः तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता एतादृशप्रयोगाः अपि सम्भवन्ति कथम् इति चित्रस्य द्वारा किञ्चित् परिशीलयिष्यामः अस्तु अधुना सर्वे पेज् 45 पश्यन्तु 45 अत्र सरला भगिनी चित्रं पश्यति वा तर्हि चित्रे किं किम् अस्ति तस्मिन् चित्रे
चित्रे घट अस्ति घटे भिन्ना आधेयता सन्ति तत्र घटकपालः तयो घटभूतले घटभूतलं आधेयता अस्ति सा संयोगसम्बन्धेन अस्ति कपाले समवायसम्बन्धेन अस्ति स्वयं तादात्म्यसम्बन्धेन अस्ति महाकाले कालिकासम्बन्धेन अस्ति ज्ञाने विषयता सम्बन्धेन अस्ति
हा इति सर्वं सत्यम् अधुना घटे आधेयताः पञ्च आधेयताः सन्ति खलु घटे पञ्च आधेयताः सन्ति यतोहि घटे भिन्नभिन्नस्थलेषु वर्तते
अधिकरणभिन्ना सन्ति
प्रथम आधेयता अस्ति ज्ञाननिष्ठ अधिकरणता निरूपिता अधेयता द्वितीया अस्ति महाकालनिष्ठ अधिकरणता निरूपिता अधेयता तृतीयः स्वयम् अधिकरणं स्वनिष्ठ अधिकरणता निरूपित अधेयता अपि घटे अस्ति पुनः कपाले
कपाले निष्ठ अधिकरणता अधेयता समवायसम्बन्धेन अस्ति
कपाल एकनिमिष कपालनिष्ठ अधिकरणता निरूपित अधेयता अपि
घटे अस्ति
हा भूतलविषये
भूतलनिष्ठ अधिकरणता निरूपति घटनिष्ठ अधेयता संयोगसम्बन्धेन
हा इति सत्यं परन्तु एतत्र एतेषु स्थलेषु सर्वत्र अवच्छेदकधर्मः कः आधेयतायाः
अवच्छेदकधर्म अत्र सम्बन्धः अस्ति यतो हि
वदतु
यतो घटे घटत्वं सर्वे सम्बन्ध अधिकरण एकसमान अस्ति तत्र घटत्वम् अविच्छेदक न भवितुं शक्नोति अत्र सम्बन्ध अवच्छेदकता भवति
हा इति वार्ता सर्वत्र अस्मिन् चित्रे सर्वत्र घटत्वावच्छिन्न आधेयता एव अस्ति खलु
आम्
हा तदर्थम् आधेयतानां मध्ये एका आधेयता अपरा आधेयतायाः भिन्ना इति वक्तुं घटत्वं कार्यं न करोति यतोहि सर्वाः आधेयताः घटत्वावच्छिन्न आधेयताः एव अतः यथा भगिनी उक्तवती सम्बन्धस्य अवच्छेदकत्वम् आवश्यकं भवति इति सत्यं खलु
आम्
सर्वेषां मनसि अवगमनं जातं वा बालसुब्रह्मण्य महोदय आधेयता घटे अस्ति अस्तु पञ्च आधेयताः सन्ति घटे घटे घटत्वमपि अस्ति तर्हि एताः सर्वाः आधेयताः घटत्वावच्छिन्न आधेयताः इति सत्यं परन्तु समान आधेयता नास्ति भिन्नभिन्न आधेयताः तर्हि केवलं घटत्वावच्छिन्न आधेयता इति वदामश्चेत् तत्र भेदः अथवा आधेयतानां मध्ये वैलक्षण्यं न भाति अतः सम्बन्धस्य अवच्छेदकता आवश्यकः इदानीं यथा भगिनी उक्तवती घटः महाकाले अस्ति कालिकसम्बन्धेन तर्हि सरला भगिनी वदतु सा आधेयता कीदृशी
महाकाले अवच्छिन्ना
एकनिमिष घटः महाकालः तयोः सम्बन्धः कः
तयोः सम्बन्धः कालिकसम्बन्धः अस्ति सो कालिकसम्बन्धेन अवच्छिन्ना अवच्छिन्ना आधेयता घटे अस्ति
हा बहु समीचीनम् इति एकस्मिन् लघुवाक्येन वदामि चेत् कालिकसम्बन्धावच्छिन्न आधेयता इति वदामि खलु
आम्
हा इदानीं ज्ञाननिष्ठ अधिकरणता निरूपित अधेयता कीदृशी
ज्ञाननिष्ठ अधिकरणता निष्ठेदकता दीर्घरूपं
न भगिनी भगिनी कीदृशी इति पृष्टवती कीदृशी
विषयता सम्बन्धेन
तर्हि विषयता
सम्बन्धेन अवच्छिन्न अधेयता अस्ति
विषय हा समीचीनं विषयिता सम्बन्धावच्छिन्न अधेयता अस्ति पुनः स्वस्मिन् घटः विद्यते तादात्म्येन तर्हि सा अधेयता कीदृशी
सा अधेयता तादात्म्यसम्बन्धेन अवच्छिन्न अधेयता अस्ति
तर्हि तादात्म्यसम्बन्धावच्छिन्न अधेयता हा घटः कपाले
समवायसम्बन्धेन अवच्छिन्न अधेयता अस्ति
हा घटः कपाले समवायेन अस्ति अतः समवायसम्बन्धावच्छिन्न अधेयता अस्तु हा घटभूतलयोः मध्ये कीदृशी स्थितिः
संयोगसम्बन्धेन अवच्छिन्न अधेयता
हा सम्बन्ध संयोगसम्बन्धावच्छिन्न अधेयता इति वदामः अतः आहत्य सम्बन्धस्यापि अवच्छेदकत्वम् अस्ति इति ज्ञातम् अस्माभिः खलु अस्तु अग्रिमपृष्ठं पश्यतु षट्चत्वारिंशत्तमपृष्ठे यत्किमपि अस्ति भवती अधुना यत्किमपि उक्तवती तदेव अस्ति अस्तु तर्हि अन्तिमपरिच्छेदं पठतु। एवं सति,
एवं सति समवाये अपि अवच्छेदकता, घटत्वे अपि अवच्छेदकता इति वचने असौकर्यम्। अतः अनयोः अवच्छेदकत्वयोः निरूपणसौकर्याय समवायनिष्ठा अवच्छेदकतायाः सांसर्गिका अवच्छेदकता इति व्यवहारो दृश्यते। द्वयोः घटत्वे अपि सम्बन्धे द्वयोः अवच्छेदकता धर्म अस्ति, किन्तु तयोः मध्ये कथं निरूपणं भवति, तस्य नूतन अवच्छेदकता अस्ति सांसर्गिका अवच्छेदकता। समवायनिष्ठसांसर्गिक अवच्छेदकता इति व्यवहारो दृश्यते, तथा च समवायनिष्ठ सांसर्गिका अवच्छेदकता निरूपता अवच्छेद्यतावती एवं घटत्वा निष्ठ अवच्छेदकता निरूपता अवच्छेद्यतावती या घटनिष्ठ आधेयता तन्निरूपता अधिकरणतावान् कपाल इति निष्कर्ष फलति।
इति इति दीर्घवाक्यमस्ति, भयं मास्तु। केवलं यथा घटत्वावच्छिन्न आधेयता आसीत्, नाम घटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती घटत्वावच्छिन्न आधेयता, तावदेव अस्ति। तद्वत् समवायनिष्ठ सांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यता अपि अस्ति, कुत्र? अधिकरणतायाः, क्षम्यताम्, घटनिष्ठ आधेयतायाम् इति भिन्नरीत्या घटनिष्ठ आधेयतायाः वर्णनं करणीयम् अत्र इति, तावदेव। अस्तु, अग्रे वाक्यत्रयमस्ति, पठति वा
भगिनि? यद्यपि तत्र ज्ञानं तद्विषयता इति तत्र शीर्षके तत्र संयोगे विद्यमाना प्रभा संसर्गिता इति अस्ति, वस्तुतः तत्र सम्बन्धे विद्यमाना प्रभा इति तत् स्वीकर्तुं शक्यते किल, तत्र तदेव तस्मात् कारणात् एव अत्र समवायनिष्ठ अवच्छेदकतायाः सांसर्गिका अवच्छेदकता इति अत्र व्यवहारः दृश्यते। सत्यं किल?
हा, सत्यमेव। तत्र तस्मिन् भागे एव इतोपि प्रायः अन्ते एकम् उदाहरणत्वेन किमपि उक्तमस्ति इति चिन्तयामि। तत्र पश्यति चेत् कुत्र, षत्रिंशत्तमे पुटे 36 इत्यस्मिन्, एवमेव घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमाधाय भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणता संसर्गमादाय चिन्त्यम् इति अस्ति खलु? हा, अयमेव विषयः, यः यद् अयं विषयं भवान् उक्तवान् सः एव विषयः अत्र अस्ति। संसर्गः इत्युक्ते सम्बन्धः, सांसर्गिकावच्छेदकता इत्युक्ते सम्बन्ध निष्ठ अवच्छेदकता इति चिन्तनीयं, समवायनिष्ठ इति अस्ति। अस्तु, तर्हि अधुना प्रतियोगितायाः स्थले सम्बन्धः अवच्छेदकः कथं भवितुमर्हति इति अग्रिमविषयः। यतोहि अस्माभिः किम् उक्तं, तादात्म्यसम्बन्धेन घटः पटो न, अथवा समवायसम्बन्धेन रूपं वायौ नास्ति इति व्यवहारः दृश्यते खलु? तस्य अर्थः एवं यत् एकत्र तादात्म्यसम्बन्धः प्रतियोगितायाः अवच्छेदकः अस्ति, अपरत्र रूपं वायौ नास्ति इत्यत्र समवायसम्बन्धः अभावस्य प्रतियोगितायाः अवच्छेदकः अस्ति। कथम् इति अग्रे परिशीलयामः। एवमेव अस्ति यः सिद्धान्तः अधुना सरला भगिन्या प्रतिपादितः, तादृशसिद्धान्तः एव प्रतियोगितास्थले अपि आगच्छति। नीता भगिनी अग्रे पठति वा?
भगिनी, अहं बहिः अस्मि, क्षम्यतां भगिनि।
अस्तु, अनन्तकृष्णमहोदय।
तत्र ज्ञानं तद्विषयता च खलु?
न, अधुना वयं कुत्र सप्तचत्वारिंशत्तमे पुटे स्मः प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं पेज् 47
प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं तुल्यन्यायात् प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं तुल्यन्यायात् अयमेव चापायः प्रतियोगित्वस्थले अपि ज्ञातव्यः. तत्र भूतले समवायेन घटः नास्ति, कपाले संयोगेन घटो नास्ति, काले विषयतासम्बन्धेन घटो नास्ति. अभावान् यदि चिन्तयामः तदा तस्य अभावस्य प्रतियोगिताः तिस्रः घटे एव वर्तन्ते, तासां च परस्परं भेदज्ञापनाय न घटत्वोपयोगः, सर्वत्र तस्यैकस्य एव अवच्छेदकत्वात् इति. पुनः पठामि. अयमेव च उपायः प्रतियोगित्वस्थले अपि ज्ञातव्यः. एषः उपायः इत्युक्ते तत्र संसर्गित उपायः इति अहं चिन्तयामि. तत्र
सम्बन्धस्य अवच्छेदकत्वम् इति उपायः,
सम्बन्धस्य अवच्छेदकत्वं तत्र अयं च उपायः प्रतियोगित्वस्थले अपि ज्ञातव्यः. अस्तु, तत्र भूतले समवायेन घटः नास्ति. भूतले समवायेन घटः नास्ति इति तत्र अस्तु. कपाले संयोगः कपाले संयोगेन घटः नास्ति, काले विषयतासम्बन्धेन घटः नास्ति. अभावान् यदि चिन्तयामः, अस्तु, एतादृश अभावान् यदि चिन्तयामः तदा तस्य अभावस्य प्रतियोगिताः तिस्रः घटे एव वर्तन्ते. अस्तु,
इति सत्यं खलु?
अवगतवान्, इदानीं वदामि. घटाभावः घटे नास्ति इति वक्तुं शक्यते खलु?
हा, इति सत्यं. अधुना त्रीणि स्थलानि. अस्तु, घटः भूतले नास्ति, घटः कपाले नास्ति, घटः काले नास्ति इति चिन्तयामः. तत्र सर्वत्र प्रतियोगी कः?
घटः.
हा, घटे घटे कति प्रतियोगिताः?
तिस्रः इति सम्बन्धेन तिस्रः प्रतियोगिताः न, प्रतियोगिता एका एव.
न, प्रतियोगिताः अपि तिस्रः इति सत्यम्.
ओ, सम्बन्धेन तत्र सम्बन्ध अवच्छेदकत्वेन तिस्रः इति वक्तुं शक्यते.
हा, तिस्र तथापि वक्तुं शक्यते, सम्बन्धः नास्ति चेदपि तिस्रः एव प्रतियोगिताः. तर्हि अत्र वार्ता का इत्युक्ते, हा, अग्रिमवाक्यं पठतु महोदय, स्पष्टं भवति. तासां च
परस्परं भेदज्ञापनाय न घटत्वोपयोगः. तत्र तयोः तेषां भेदज्ञापनाय घटत्वस्य न उपयोगः इति उक्तमस्ति.
यतोहि किमर्थम् उपयोगः न भवति घटत्वस्य?
घटत्वस्य किमर्थं चेत् घटः एव प्रतियोगी भवति सर्वत्र इति.
सत्यं, सर्वत्र यद्यपि तिस्रः प्रतियोगिताः सन्ति तथापि सर्वाः प्रतियोगिताः घटत्वावच्छिन्न प्रतियोगिताः इति एव आगच्छति खलु, घटस्य साहाय्यं स्वीकुर्मश्चेत्.
तस्य एकस्य अवचेतकत्वात् तत्र घटत्वम् इति वदामः चेत् प्रतियोगिता तत्रैव घटत्वे इति एव घटत्वम् इति एव भवति. ततः एतस्य प्रयोगः आवश्यकः इति.
हा, एतस्य प्रयोगः, सम्बन्धस्य प्रयोगः आवश्यकः. अस्तु, अग्रिमपरिच्छेदं पठतु.
अतः येन सम्बन्धेन नास्ति इति व्यवहारः कृतः तं सम्बन्धम् आधाय एव प्रतियोगिताभेदः अधिगन्तव्यः. तत्प्रकारः च समवायसम्बन्धनिष्टसंसर्गिकावच्छेदकता निरूपिता अवच्छेद्यावधि अवच्छेद्यावधि घटत्वानिष्ट अवच्छेदकता निरूपिता अवच्छेद्यावधि या घटनिष्ठप्रतियोगिता तादृश प्रतियोगिता निरूपित निरूपित अनियोगिता आश्रयः अभावः भूतले समवायेन घटः नास्ति इति प्रतीतिः सिद्धः.
यद्यपि तथा अस्ति, केवलं समवायसम्बन्धावच्छिन्न प्रतियोगिता इति अलम् इति पर्याप्तम्. हा, तेन ज्ञातुं शक्नुमः यत् समवायसम्बन्धावच्छिन्न प्रतियोगिताकः अभावः इति. समवायसम्बन्धावच्छिन्न प्रतियोगिताकः घटाभावः समवायसम्बन्धावच्छिन्न प्रतियोगिताक घटाभावात् भिन्नः इति ज्ञातुं शक्नुमः.
पुनः वदतु.
समवाय बृहद्वाक्यमस्ति खलु, समवायसम्बन्धनिष्ठसांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावति प्रतियोगिता इति अस्ति खलु. तस्य स्थाने समवायसम्बन्धावच्छिन्न प्रतियोगिता इति वक्तुं शक्नुमः. समवायसम्बन्धावच्छिन्न प्रतियोगिता कुत्र अस्ति? घटकपालः तस्मिन् सन्दर्भे भवति. समवायसम्बन्धावच्छिन्न प्रतियोगिता कपाले घटः नास्ति इत्यस्मिन् सन्दर्भे, घटः भूतले नास्ति इत्यस्मिन् सन्दर्भे प्रायः संयोगसम्बन्धावच्छिन्न प्रतियोगिता इति वक्तुं शक्नुमः. अनेन ज्ञातुं शक्नुमः एका प्रतियोगिता अपरस्याः भिन्ना इति. अस्तु, इति सम्बन्धस्य अवच्छेदकत्वं. किन्तु हा, एतदेव चित्ररूपेण निर्मितमस्ति. एकं करपत्रं प्रेषितं मया, पश्यन्ति वा, चित्रव्यवस्थापनम् इति. कृपया उद्घाटयन्तु, तत्र किञ्चित् अभ्यासं कुर्मः. रविमहोदय अस्ति किम्?
आम् अस्मि.
चित्रं पश्यति वा महोदय, प्रथमचित्रं?
करपत्रे.
करपत्रे, हा.
आम्.
इदानीम् अस्माभिः किं किं दृष्टं? सम्बन्धस्य अवच्छेदकता अस्ति, धर्मस्य अवच्छेदकता अस्ति, एतत् सर्वम् अत्र चित्ररूपेण निरूपितं. किञ्चित् तत् परिशीलयामः. प्रथमचित्रं किञ्चित् वदति वा?
भूतलनिष्ठ अधिकरणता निरूपिता अधेयतावान् घटः.
घटः, हा, समीचीनम्. अपरस्यां दिशि?
घटनिष्ठ अधेयता निरूपित अधिकरणता आश्रय भूतलम्.
भूतलं बहु सम्यक् अस्ति महोदय. इति सामान्यपरिस्थितिः, अधिकरणता अधेयता निरूपणम्. अधुना द्वितीयचित्रं पश्यतु. हा, द्वितीयचित्रे घटः संयोगसम्बन्धेन भूतले अस्ति इति परिस्थितिः. तर्हि अत्र अवच्छेदकधर्मः कः? प्रथमतया घटत्वम् इति सत्यं. प्रथमतया घटे किं किम् अस्ति इति परिशीलयतु. घटे किं किम् अस्ति?
घटे प्रतियोगिता, घटत्व.
न, द्वितीयचित्रं दृष्ट्वा वदतु महोदय. द्वितीयचित्रे घटे किं किम् अस्ति? घटे आधेयता अस्ति.
आधेयता अस्ति.
हा, अन्यत् किम् अस्ति घटे?
संयोगसम्बन्धः अपि.
हा, समीचीनं, संयोगसम्बन्धः. अन्यत् किम् अस्ति?
घटत्वम् अस्ति.
घटत्वम् अत्र अस्मिन् चित्रे किं निरूपितम् इत्युक्ते घटः भूतले अस्ति संयोगसम्बन्धेन इति चित्रस्य निदर्शनम्. अस्तु, तर्हि संयोगसम्बन्धेन भूतले अस्ति चेत् सः संयोगसम्बन्धः उभयनिष्ठः, घटे अपि अस्ति भूतले अपि अस्ति इति आगतम्। अतः घटे संयोगसम्बन्धः अस्ति, घटे आधेयता अस्ति, घटे घटत्वम् अस्ति, समानस्तरे सर्वमस्ति। घटे त्रयः पदार्थाः सन्ति, घटत्वं, संयोगसम्बन्धः, आधेयता। अतः आधेयता कीदृशी इति चेत् घटत्वावच्छिन्न आधेयता इति वक्तुं शक्नुमः। यतोहि घटे विद्यमानः धर्मः तस्याः आधेयतायाः अवच्छेदकः भवति। अस्तु, तर्हि घटनिष्ठ आधेयता कीदृशी?
संयोगसम्बन्ध
संयोगसम्बन्धावच्छिन्न आधेयता अथवा घटत्वावच्छिन्न आधेयता इति वक्तुं शक्नुमः। अधुना अस्य प्रयोगं कृत्वा भूतलम् इत्यस्य विवरणं करोतु।
घटनिष्ठत्वाधेयता
बहु समीचीनमस्ति महोदय, तथा एव अस्ति। घटनिष्ठ घटत्वावच्छिन्नाधेयता खलु, तया निरूपित अधिकरणताश्रय भूतलम्। अस्तु, इदानीं संयोगसम्बन्धस्य साहाय्येन
घटनिष्ठसंयोगसम्बन्धः विच्छिन्न आधेयता निरूपिता अधिकरणताश्रयः भूतलम्।
हा, भूतलम्, हा, बहु सम्यक् अस्ति। तथा एव अग्रिमचित्रं पश्यतु, तत्र चित्रस्य उपरितनभागे किं किम् अस्ति इति पठतु।
अवच्छेदकता
न न एकनिमिषः, तत्र चित्रे त्रीणि इति संख्या अस्ति खलु उपरितनभागे, तत् पठतु।
घटः संयोगसम्बन्धेन भूतले अस्ति, अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च अवच्छिन्ना निष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती।
हा, इत्युक्ते भवान् यदुक्तवान् घटत्वावच्छिन्न संयोगसम्बन्धावच्छिन्न, तेन अवच्छेदक अवच्छेद्यभावः प्रदर्शितः अस्ति तावदेव। अस्मिन् चित्रे भवता यदुक्तं तद् विस्तारेण प्रदर्शितमस्ति इति। तत्र चित्रस्य दक्षिणभागे पश्यतु, तत्र संयोगसम्बन्धः अस्ति खलु, पश्यति वा महोदय? वयं घटनिष्ठ संयोगसम्बन्धनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावति आधेयतानिरूपित अधिकरणताश्रयः भूतलम् इति वक्तुं शक्नुमः। अथवा लघुमार्गेण घटनिष्ठसंयोगसम्बन्धावच्छिन्न आधेयतानिरूपित अधिकरणतावत् भूतलम् इति वक्तुं शक्नुमः। तादृशप्रयासः क्रियते चेत् करोति वा तादृशप्रयासम्?
घटनिष्ठसंयोगसम्बन्धनिष्ठ अवच्छेदकता इति
तद्वदतु प्रथमं।
घटनिष्ठसंयोगसम्बन्धनिष्ठा अवच्छेदकता निरूपिता अवच्छेद्यतावती आधेयता
निरूपित निरूपित अधिकरणता आधेयता
निरूपित आधेयता निरूपित अधिकरणता
अधिकरणता भूतलम् भूतलम् बहु समीचीनम् इति दीर्घमार्गः। लघुमार्गः कः?
घटनिष्ठ आधेयता आधेयता निरूपिता
भूतलम् अथवा घटनिष्ठ संयोगसम्बन्धावच्छिन्न आधेयता इति वक्तुं शक्नुमः। आधेयता कीदृशी? संयोगसम्बन्धावच्छिन्न आधेयता। हा घटनिष्ठसंयोगसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणतावत् भूतलम् अथवा अधिकरणताश्रयः भूतलम् इति वर्णनं भवति, नाम सम्बन्धस्य अवच्छेदकत्वम् अस्ति इति प्रदर्शितम् अस्मिन् चित्रस्य दक्षिणभागे. अत्र घटत्वम् इत्यपि एकः अवच्छेदकः अस्ति. अस्तु, तस्य विषये अपि समानरीत्या एव वक्तुं शक्नोति वा?
घटनिष्ठघटत्वं निष्ठ अवच्छेदकता निरूपिताधिकरणताश्रय भूतलम्.
घटनिष्ठ तत्र कश्चन परिष्कारः आवश्यकः, प्रायः वेङ्कटेशमहोदय साहाय्यं करोति वा?
घटनिष्ठघटत्वावच्छिन्न आदेयता निरूपित अधिकरणताश्रयः भूतलम्.
हा भूतलं, बहु समीचीनं. तर्हि आदेयता अधिकरणता अनयोः अस्ति निरूपकनिरूप्यभावः. अस्तु महोदय, अधुना दीर्घमार्गेण.
घटनिष्ठ घटनिष्ठघटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आदेयतानिरूपित अधिकरणताश्रयः भूतलम्.
हा बहु समीचीनम् इति एव वार्ता अस्ति. अस्तु, एतावत्पर्यन्तम् अधिकरणता आधेयता अनयोः. हा, अग्रिमचित्रमपि तथा एव अस्ति इति भाति. अस्तु, रत्ना भगिनी विवृणोति किम्?
अस्तु भगिनि, तदेव अस्ति किल. घटः समवायसम्बन्धेन कपाले, ओ कपाल, अस्तु, घटः समवायसम्बन्धेन कपाले अस्ति. अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः. हा, वयं जानीमः घटकपालयोः समवायसम्बन्धः इति. अत्र घटनिष्ठसमवायसम्बन्धनिष्ठ अवच्छेदकतानिरूपिता अवच्छेद्यतावती आधेयतानिरूपिता अधिकरणतावान् कपालः. लघुमार्गेण गच्छामः चेत् घटनिष्ठसमवायसम्बन्धावचिन्न आधेयता निरूपिता अधिकरणतावान् कपालः. अनन्तरं धर्मम् उपयुज्य वदामः चेत् घटनिष्ठ घटत्व अवच्छेदकतानिरूपिता अवच्छेद्यतावती आधेयतानिरूपिता अधिकरणताश्रयः कपालः. तदेव लघुमार्गेण वदामः चेत् घटनिष्ठ घटत्वावच्छिन्न आधेयता निरूपिता अधिकरणताश्रयः कपालः.
हा, बहु समीचीनमस्ति. तर्हि अग्रे सव्यसाचि महोदय, अग्रिमचित्रं कृपया.
आं भगिनि, घटनिष्ठ विषयितासम्बन्धनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावति आधेयता निरूपित अधिकरणताश्रय अधिकरणताश्रय ज्ञानम् इति प्रथमम् अस्ति. द्वितीयं भवती संक्षेपेण वदामः चेत् घटनिष्ठ विषयितासम्बन्धावच्छिन्न आधेयतानिरूपित अधिकरणताश्रयः ज्ञानम्. द्वितीयं धर्मविषये घटे घटत्वम् अस्ति, तत् मार्गेण गच्छामः चेत् घटनिष्ठ घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावति आधेयता निरूपित अधिकरणताश्रयः ज्ञानम्. एवं संक्षेपेण गच्छामः चेत् घटनिष्ठ घटत्वावच्छिन्न आधेयतानिरूपित अधिकरणताश्रयः ज्ञानम्.
हा, बहु समीचीनमस्ति. सर्वेषाम् अधुना नैपुण्यं जातम् इति भाति. सम्यक् एव. अग्रे
भगिनि, एकः प्रश्नः, अत्र घटे विषयता अस्ति किल, विषयितासम्बन्धः ज्ञाने अस्ति?
न न, इति सत्यं. तत्र तेषु दिनेषु अपि मूलवर्गे चर्चा जाता. तत्र घटः विषयितासम्बन्धेन ज्ञाने वर्तते, ज्ञानं विषयतासम्बन्धेन घटे वर्तते. अस्तु यथा संयोगसम्बन्धः तथा संयोगसम्बन्धः यथा उभयनिष्ठः भवति तद्वत् एषः विषयितासम्बन्धः घटे अपि भवति. तत्र किञ्चित् वृत्ति अनियामकसम्बन्धः यथा घटः आकाशे आकाशः घटे इति अस्ति खलु तद्वदस्ति ज्ञानस्य तद्विषयतायाः सम्बन्धः. अपि च वदामः यत् घटः विषयितासम्बन्धेन ज्ञाने अस्ति. इदानीं तत्र महोदयेन उक्तमासीत् पुत्रः इति अस्ति कश्चन तस्य पुत्रत्वं केन निरूपितं भवति? पित्रा निरूपितं भवति. तर्हि कथञ्चित् स्वनिरूपितपुत्रत्वसम्बन्धेन पिता पुत्रे अस्ति इति वदामः तद्वदेव.
अस्तु
स्वनिरूपितपुत्रत्वं तेन सम्बन्धेन पितुः विद्यमानत्वं पुत्रे तथा वदामः तद्वदेव. घटः विषयितासम्बन्धेन ज्ञाने भवति, ज्ञानं विषयतासम्बन्धेन घटे भवति इति आगच्छति.
अस्तु
इत्युक्ते ज्ञानेन विषयः निरूपितः भवति खलु. हा स्वनिरूपितविषयतासम्बन्धः तेन सम्बन्धेन ज्ञानं घटे, स्वनिरूपितविषयितासम्बन्धेन घटे घटः ज्ञाने इति.
अस्तु
इति एव
अस्तु. इत्युक्ते ज्ञानं घटे विषयितासम्बन्धेन वर्तते, घटः ज्ञाने विषयतासम्बन्धेन वर्तते.
घटः विषयिता
ओ घटः विषयितासम्बन्धेन ज्ञाने वर्तते.
सत्यं
अस्तु. घटे विषयता अस्ति, ज्ञाने विषयिता अस्ति.
सत्यं इति अपि सत्यम्. अस्तु अग्रे. हा अधुना प्रतियोगिता अनुयोगिता इति विचारः आगच्छति. विद्याशङ्करमहोदय निरूपणं करोति वा कृपया अग्रिमचित्रम्.
आं भगिनि, घटनिष्ठ किं संयोगसम्बन्धावच्छिन्न वदामि अवच्छिन्ननिरूपितप्रतियोगिता
एकनिमिषं. घटनिष्ठसंयोगसम्बन्धावच्छिन्नप्रतियोगिता तावत्पर्यन्तं समीचीनं. सा प्रतियोगिता कां निरूपयति?
निरूपयति.
हा अतः वाक्यं भवति घटनिष्ठसंयोगसम्बन्धावच्छिन्नप्रतियोगिता निरूपित अनुयोगिताश्रयः घटाभावः. दीर्घमार्गेण
घटनिष्ठ संयोगसम्बन्धावच्छिन्न अवच्छेद्यकतानिरूपित अवच्छेद्यतावती प्रतियोगिता निरूपित अनियोगिताश्रयः घटाभावः.
घटाभावः अस्तु. यत्र दीर्घमार्गः भवति तत्र अवच्छिन्ना इत्यस्य प्रयोगः न भवति. लघुमार्गे अवच्छिन्ना इति प्रयुक्तः तादृशशब्दः इति. अस्तु इदानीं घटत्वम् आदाय किञ्चित् विवरणं करोतु.
घटनिष्ठ घटत्वनिष्ठा अवच्छेदकता निरूपित अवच्छेदितावती प्रतियोगिता निरूपित अनियोगिता अनियोगिताश्रयः घटाभावः.
लघुमार्गेण
घटनिष्ठ घटत्वनिष्ठ अवच्छिन्ना निरूपित निरूपित अनियोगिता निष्ठाश्रयः घटाभावः.
हा समीचीनं. यदा अवच्छिन्ना इति वदामः तत्र निष्ठा इत्यादिकं न उच्यते. नाम घटनिष्ठघटत्वावच्छिन्न प्रतियोगितानिरूपित अनुयोगिताश्रयः घटाभावः इति तावदेव भवति. अस्तु अग्रिमचित्रं बालसुब्रह्मण्यमहोदय प्रयत्नं करोति वा.
पठाभावः संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता प्रतियोगिता निरूपित अनियोगिताश्रयः पठाभावः.
हा बहु समीचीनं. भूतले अस्ति. अस्तु लघुमार्गेण
पठनिष्ठसंयोगसम्बन्ध अवच्छिन्न प्रतियोगिता निरूपित अनियोगितस्य पटाभावः
बहु सम्यक् पटत्वमादाय
पठनिष्ठ पठत्व पठत्व अवच्छिन्न प्रतियोगितनिरूपित अनियोगिताश्रयः पटाभावः
समीचीनमस्ति महोदय दीर्घमार्गम् उपयुज्य
पठनिष्ठ पठत्व निष्ठ अवच्छेदकता निरूपित अवच्छेद यथा गति प्रतियोगिता निरूपित अनियोगिताश्रयः पटाभावः
पटाभावः बहु सुन्दरमस्ति पटः संयोगसम्बन्धेन भूतले नास्ति इति विचारः अत्र प्रतिपादितः हा अन्तिमं कुर्मः सरला भगिनी करोति वा अन्तिमचित्रम्
आं भगिनि घटकालिकसम्बन्धेन महाकाले अस्ति अवच्छेदकधर्मघटत्वम् अवच्छेदकसम्बन्धकालिकसम्बन्ध घटनिष्ठकालिकसम्बन्धनिष्ठ अवच्छेदकता निरूपता अवच्छेद्यतावती आधेयता निरूपता अधिकरणता आश्रय कालः लघुमार्गेण अस्ति घटनिष्ठकालिकसम्बन्ध अवच्छिन्ना आधेयता निरूपता अधिकरणता आश्रय महाकाल घटनिष्ठघटत्वं निष्ठ अवच्छेदकता निरूपता अवच्छेद्यतावती आधेयता निरूपता अधिकरणता वान् कालः वा लघुमार्गेण घटनिष्ठघटत्वम् अवच्छिन्ना आधेयता निरूपता अधिकरणता आश्रयकालः
हा बहु सुन्दरमस्ति तर्हि आहत्य सम्बन्धस्यापि अवच्छेदकत्वं भवति इति आगतं प्रकृते अन्योन्याभावस्य विषये सर्वोपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति नाम अपरेषु पदार्थेषु तेन सम्बन्धेन नास्ति इति विषयः यथा षष्ठ सप्तमचित्रमस्ति खलु पटः संयोगसम्बन्धः अनुयोगः पटाभावः तद्वदेव घटः इति स्थापयतु घटस्य उपरि तादात्म्यसम्बन्धः इति स्थापयित्वा घटनिष्ठतादात्म्यसम्बन्धावच्छिन्न प्रतियोगितानिरूपित अनुयोगिता आश्रयः पटः इति आगच्छति घटः पटः इति लिखति चेत् तदर्थमेव एषः अभ्यासः सञ्जातः तादात्म्यसम्बन्धस्य अवच्छेदकत्वम् अस्ति अन्योन्याभावस्थले इति विवरणं दातुम् अस्तु इति चतुर्थः अभावः सः चतुर्थः अभावः तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकः अभावः इति साधितमस्ति अस्मिन् कोऽपि प्रश्नः वा अत्र उद्देशग्रन्थः समाप्तः अभावस्य वर्णनं कृत्वा अग्रिमसप्ताहात् आरभ्य लक्षणग्रन्थे प्रवेशः भवति अस्माकम् इति कस्यचित् किमपि चिन्तनं कोऽपि प्रश्नाः सन्ति चेत् भवितुमर्हन्ति नो चेत् अत्र समापयिष्यामः अपि च गृहे इतोपि एकं करपत्रमस्ति भूतले समवायसम्बन्धेन घटो नास्ति इत्यस्य विषये तदेकवारं पठतु यतोहि प्रश्नः आगतः यत् भूतले घटः अस्ति चेत् संयोगसम्बन्धेन भवति खलु तर्हि कथं तस्मिन् पृष्ठे पेज् 47 इति चिन्तयामि सप्तचत्वारिंशत्तमे पुटे भूतले समवायसम्बन्धेन घटो नास्ति इति कथं वदन्ति किमर्थं वदन्ति इत्यस्य विषये करपत्रमस्ति नाम तत्र यदि भूतले समवायसम्बन्धेन घटो नास्ति इत्यपि सत्यं खलु भूतले यदि घटः भवति तदा संयोगेन एव भवति समवायेन न भवति तदर्थम् एतद्वाक्यं सत्यं भूतले समवायसम्बन्धेन घटो नास्ति इति वाक्यं सत्यम् इत्यस्य विषये करपत्रमस्ति अस्तु कोऽपि प्रश्नः नास्ति चेत् अत्र विरमामः
धन्यवादाः
धन्यवादाः
धन्यवादः नमस्कारः
नमस्कारः